तमसा विश्वभृत्तमा महत् तेजो वसुमद्राजतो दिवि सामा आत्माना चरतः सामचारिणा यजो अरुव्रतम् नवमेजातु देवयोः उभावन्तो परिजात अर्म्या दिवो न रश्मेगस्तनुतोऽव्यर्णवे उभा भुवन्ति भुवना कविक्रतु सूर्यानचन्द्रा चरतो हतामती पतीद्युमद्विश्वविदा उभा दिवः सूर्या उभा चन्द्रमसा विचक्षणा विश्ववारावरिवो भावरेण्या तानोवतम् मतिमन्ता महिम्रता विश्ववपरे प्रतरणातरन्ता सुवरुविदा दृशजे भूरिरश्मि सूर्या हि चन्द्रावसुत्पेषदर्शत मनस्विनो भानुजरतो नुसन्दिवम् अस्य श्रवो नद्यः सप्त बिभ्रति या वाक्षामा पृथिवीदर्शतम् वपुः अस्मे सूर्या चन्दमसाभिचक्षे श्रद्धे कविन्द्रचरतो विचर्तुरम् पूर्वापरञ्चरतो माययैतौ शिशोत्क्रीडन्तौ परियातो अध्वरम् विश्वान्यन्यो भुवनाभिचष्टे ऋतोऽनन्यो विदधज्जायते पुनः हिरण्यवर्णाश्रुतयः पावकायासु जातः कश्च पूजास्विन्द्रः अग्निया गर्भम् दधिरे विरूपास्तान आपश्चग्रस्यो नाभवन्तो या सागुम् राजा वरुणो जाति मध्ये सत्याधृते अवपश्यञ्जनानाम् मधुश्चुतश्रुतयोजाः पावकास्तान आपश्चग्रस्यो नाभवन्तो या सा अन्देवादिवि कृण्वन्ति भक्षय्या अन्तरिक्षे बहुधा भवन्ति याः पृथिवीम् वयसोऽन्दन्ति शक्रास्तान आपश्चग्रस्यो नाभवन्तु शिवेन माचक्षुषा पश्यतापश्चिवया तनुवोपस्पृशतत्वचम् मे सर्वागुम् अग्नेगुम् रप्सुषदोहुवे वो वयवच्चो बलवो जो निधत्त आपो भद्राघृतमिदाप आसुरग्ने सोमौ बिभ्रत्याप इत्ताः तीव्रो रसो मधुप्रचामरङ्गमामा प्राणेन सह वर्चसा गन् आदिपश्चान्युतवाषडाम्या माघोषो गच्छति वाङ्ग्रासाम् मन्ये भेदानो अमृतस्य तर्हि हिरण्यवर्णा अतृपञ्जदा वः नासदासीन्नो सदासीत्तदानीम् नासीद्रजो नो व्योमापरो यत् किमावरीवः कुहकस्य शर्मन् अम्भः किमासीत् गहनङ्गभीरम् न मृत्युरवतन्तर्हिण रात्रिया अह्न आसीत्त्वकेतः आनीतवातज्ञस्वधया तदेकम् तस्माद्धान्यन्न परः किञ्चनास तम आसीत्तमसा गूढमग्रे प्रकेतम् सलिलकम् सर्वमा इदम् तुच्छेनाभ्वपिहितम् यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमम् यदासीत् सतो बन्धुवसति निरविन्दन् हृदि प्रतीश्या कवयो मनीषा तिरश्चीनोऽपि ततो रश्मिरेषाम् अधस्विदासीत् दुमनिस्विदासीत् रेतोधा आसन्महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् को अद्धा वेदक इह प्रवोचत् कुत आजाता कुत इयम् विसृष्टिः अरुवाद्देव अस्य विसर्जनाय अथा को वेदयत बभूव इयं विसृष्टिर्यत बभूव यदि वा दधे यदि वा न यो अस्याध्यक्षः परमेभ्यो मन् सो अङ्गवेद यदि वा न वेद किग्गस् विद्वनङ्ग उस वृक्ष आसीत् यतोद्या वा पृथिवी निष्ठतक्षुः मनीषिणो मनसा पृच्छते दुदते यदध्यतिष्ठद्भुवनानि धारयन् ब्रह्मवनम् ब्रह्म स वृक्ष आसीत् यतोद्या वा पृथिवी निष्ठतक्षुः मनीषिणो मनसा विब्रवीमिवः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् प्रातरग्निम् प्रातरिन्द्रगम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् भूषणम् ब्रह्मणस्पतिम् प्रातः सोममुतरुद्रगम् हवेम प्रातर्जितम् भगमुग्रगम् हवेम वयम् पुत्रमदितेर्यो विधर्ता आध्रश्चिद्यम् मन्यमानस्तुरश्चित् राजा चिद्यम् भगम् भक्षीत्याह भगप्रणेतर्भगसत्यराधः भगेमान्धियमुदवदन्नः भगप्रणाजनयगोभिरश्वैः भगप्रदभिर्नृवन्तः स्याम उतेदानीम् भगवन्तः स्याम उत प्रपित्त उत मध्ये अह्ना उदोदितामघवन् सूर्यस्य वयन्नेवानागुम् सुभतो स्याम भग एव भगवागुम् अस्तु देवाः तेन वयम् भगवन्तः स्याम तन्ता भग सर्व इज्जो हवीमि स नो भगपुर एता भवेह सबध्वराजोषसो न मन्द दधिक्रावेव शुचये पदाय अरुवाचीनम् वसुविदम् भगन्नः रथमिवाश्वाजिना वहन्तु अश्वावतीर्गोमतीर्न उषासः वीरवतीः सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वतः प्रपीनाः योऽयम् पातः स्वस्तिभिः सदानः अग्निर्नः पातु कृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् हविरासंयोदन यस्य भान्तिरश्मयो यस्य केतवः यस्येमा विश्वा भुवनानि सर्वा सकृत्तिकाभिरभिसंवसानः अग्निर्नो देवः सुविते दधातु प्रजापते रोहिणी वेतु पत्नी विश्वरूपा बृहति चित्रभानुः सा नो यज्ञस्य सुविते दधातु यथा जीवेम शरदः सवीराः रोहिणी देव्युदगात् पुरस्तात् विश्वारूपाणि प्रतिमोदमाना प्रजापतिगम् हविषा वर्धयन्ति प्रिया देवानामुपयातु यज्ञम् सोमो राजा मृगशीर्षेण आगन्ने शिवन्नक्षत्रम् प्रियमस्य धाम आप्यायमानो बहुधा जनेषु प्रेतः प्रजायजमाने दधातु यत्ते नक्षत्रम् मृगशीर्षमस्ति प्रियकम् राजन् प्रियतमम् प्रियाणाम् तस्मै ते सोमहविषा विधेम शन्नयेधिद्युपदेशम् चतुष्पदे आर्द्रया रुद्रः प्रथमानयेति श्रेष्ठो देवानाम् पतिरघ्नियानाम् नक्षत्रमस्य हविषा विधेम मानः प्रजागुम् व्रीरिषन्मोप वीरान् हेति रुद्रस्य परिणा वृणक्तो आर्द्रानक्षत्रञ्जुषतागम् हविर्नः प्रमुञ्चमानौ दुरितानि विश्वा अपाघषकम् सन्नुदतामरातिम् पुनर्नो देव्यदिति स्पृणोतु पुनर्वसूनः पुनरेत अञ्जज्ञम् पुनर्नो देवा अभियन्तु सर्वे पुनः पुनर्वो हविषा यजामः एवान देव्यदितिरनर्वा विश्वस्य भर्त्री जगतः प्रतिष्ठा पुनर्वसु हविषा वर्धयन्ति प्रियम् देवानामप्येतुपाथः बृहस्पतिः प्रथमम् जायमानः तिष्ठन्नक्षत्रमभिसम्बभूव श्रेष्ठो देवानाम् प्रतनासु जिष्णुः दिशो न सर्वा अभयन्नो अस्तु तिष्यः पुरस्तादुतमध्यतो नः बृहस्पतिर्नः परिपातु पश्चात् बाधेताम् द्वेषो अभयम् कृणुताम् सुवीर्यस्य पतयस्याम इदकम् सर्पेभ्यो हविरस्तु जुष्टम् आश्रेषा येषामनुयन्ति चेतः ये अन्तरिक्षम् पृथिवीम् क्षियन्ति तेन सर्पासो हवमागमिष्ठाः ये रोचने सूर्यस्यापि सर्पाः ये दिवम् देवीमनुसञ्चरन्ति येषामाश्रेषा अनुजन्ति कामम् तेभ्यः सर्पेभ्यो मधुमज्जुहोमि उपहूताः पितरो ये मघासु मनोजवसः सुकृतः सुकृत्याः ते नो नक्षत्रे हवमागमिष्ठाः स्वधाभिर्यज्ञम् प्रयतञ्जुषन्ताम् ये अग्निदग्धानेनग्निदग्धाः ये मल्लोकम् पितरः क्षियन्ति यागश्च विद्मयागम् उच न प्रविद्म मघासु यज्ञकम् सुकृतञ्जुषन्ताम् गवाम् पतिः फल्गुनीनामसि त्वम् तदर्यमन्वरुणमित्रचारु तन्तावयगम् सनितारकम् सनीनाम् जीवाजीवन्तमुपसंविशेम ये नेमा विश्वा भुवनानि सञ्जिता यस्य देवा अनुसञ्जन्ति चेतः अर्यमा राजाजरस्तु विष्मान् फल्गुनीनामृषभो रोरवीति श्रेष्ठो देवानाम् भगवो भगासि तत्त्वाविदुः फल्गुनीस्तस्य वित्तात् अस्मभ्यम् क्षत्रभजरकम् सुवीर्यम् गोपदश्वपदुपसन्नु देह भगो हदाता भग इत्प्रदाता भगो देवीः फल्गुनीराविवेश भगस्येत्तम् प्रसवङ्गमेम यत्र देवैः सधमादम् वदेम आयातु देवः सवितोपयातु हिरण्यजेन सुभृतारथेन वहनहस्तकम् सुभगम् विद्मनापसम् प्रयच्छन्तम् पपुरिम् पुण्यमच्छ हस्तः प्रयच्छ त्वमृतम् वसीयः दक्षिणेन प्रतिगृह्णीम एनत् दातारभजसविता विदेय यो नो हस्ताय प्रसुवाति यज्ञम् त्वष्टा नक्षत्रबभ्येति चित्राम् सुभगुम् ससंयुवतिगुम् रोचमानाम् निवेशयन्नवृतान्मर्त्याकश्च रूपाणि पिगुंशन् भुवनानि विश्वा तन्नस्त्वष्टा तदु चित्रा वितुष्टा तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नः प्रजाम् वीरवती गुंसनोतु गोभिर्नो अश्वैः समनक्तु यज्ञम् वायुर्नक्षत्रबभ्येति निष्ट्या तिग्वशङ्गो वृषभोरोरुवाणः समीरजन्भुवनामातरिष्वा अपद्वेषागुंसि नुदतामरातीः तन्नो वायुस्तदु निष्ट्या शृणोतु तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नो देवासो अनुजानन्तु कामम् यथा तरे मधुरितानि विश्वा दूरमस्त्वच्छत्रवोऽयन्तु भीताः तदिन्द्राग्नीकृणुताम् तद्विशाखे तन्नो देवा अनुमदन्तु यज्ञम् पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणामधिपत्नी विशाखे श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ विशूचः शत्रूनपबाधमानौ अपक्षुधन्नुदतामरातिम् पूर्णा पश्चादुतपूर्णा पुरस्तात् उन्मध्यतः पौर्णमासीजिगाय तस्यां देवा अधिसंवसन्तः उत्तमेनाक इह मादयन्ताम् पृथ्वी सुवर्चा युवतिः सजोषाः पौर्णमास्युदगाच्छोभमाना आप्याजयन्ती दुरितानि विश्वा पुरन्दुहाञ्जयमानाय यज्ञम् ृद्ध्यास्महव्यैर्नमसोपसद्य मित्रम् देवम् मित्रधेयन्नो अस्तु अनुराधान हविषा वर्धयन्तः शतम् जीवेम शरदः सवीराः चित्रम् नक्षत्रमुदगात् पुरस्तात् अनुराधा स इति यद्वदन्ति तन्मित्रयेति पथिभिर्देवजानैः हिरण्यजैरुवितैरन्तरिक्षे इन्द्रो ज्येष्ठामनुनक्षत्रमेति यस्मिन् वृत्रम् वृत्रतूर्ये ततार तस्मिन् वयममृतम् दुहानाः क्षुधन्तरे मधुरितिन्दुरिष्टिम् पुरन्दराय वृषभाय धृष्णवे अषाढाय सहमानाय मीढुषे इन्द्राय ज्येष्ठा मधुमद्दुहाना पुरम् कृणोतु यजमानाय लोकम् मूलम् प्रजाम् वीरवतीम् विदेय पराच्येतु निरतिः पराता गोभिर्नक्षत्रम् पशुभिः समक्तम् अहद्भोजाद्यजमानाय मह्यम् अहन्नो अद्य सुविते दधातु मूलन्नक्षत्रमिति यद्वदन्ति पराजीम् वाचा निररतिम् नुदामि शिवम् प्रजायै शिवमस्तु मह्यम् या दिव्या आपः पयसा सम्बभूवुः या अन्तरिक्ष उदपार्थिवीर्याः या सामषाढा अनुयन्ति कामम् तान आपः शग्रस्यो न भवन्तु याश्च गोप्यायाश्च राज्याः याश्च वैशन्ते ऋतप्रासतीर्याः या सामषाढा मधुभक्षयन्ति तान आपश्चग्रस्यो न भवन्तु तन्नो विश्वे उपशृण्वन्तु देवाः तदषाढा अभिसंयन्तु यज्ञम् तन्नक्षत्रम् प्रथताम् पशुभ्यः ऋषिरवृष्टिर्यजमानाय कल्पताम् शुभ्राः कन्यायुवतयः सुपेषसः कर्मकृतः सुकृतो वीर्यावतीः विश्वान् देवान् हविषा वर्धयन्तीः अषाढाः काममुपयान्तु यज्ञम् यस्मिन् ब्रह्माभ्यजयत् सर्वमेतत् अमुम् च लोकमिदमु च सर्वम् तन्नो नक्षत्रमभिजिद्विजित्य श्रियम् दधात्महृणीयमानम् उभौ लोको ब्रह्मणा सञ्जितेमौ तन्नो नक्षत्रमभिजिद्विचष्टाम् तस्मिन् वयम् प्रतनाः सञ्जयेम तन्नो देवासो अनुजानन्तु कामम् शृण्वन्ति श्रोणावमृतस्य गोपाम् पुण्यामस्या उपशृणोऽभिवाचम् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीवेनागम् हविषाय जामः त्रेधा विष्णुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैतिश्रव इच्छमाना पुण्यग्रश्लोकम् यजमानाय कृण्वति अष्टौ देवावसवः सोम्यासः चतस्रो देवी रजराश्रविष्ठाः ते यज्ञम् वान्तु रजसः परस्तात् संवत्सरीणमपृतज्ञः स्वस्ति यज्ञम् नः पान्तु वसवः पुरस्तात् दक्षिणतोऽभियन्तु श्रविष्ठाः पुण्यम् नक्षत्रमभिसंविशाम मानो अरातिरघ शगुंसागन् ಕ್ಷತ್ರಸ್ಯ ರಾಜಾ ವರುಣಾಧಿರಾಜಃ ನಕ್ಷತ್ರಾಣಾಗುಂಶದಭಿಷಗ್ವಸಿಷ್ಠಃ ತೌ ದೇವೇಭ್ಯಃ ಕೃಣುತೋ ದೀರ್ಘಮಾಯುಃ ಶತಗುಂ ಸಹಸ್ರಾಭೇಷಜಾ ನಿಧತ್ತಃ ಯಜ್ಞಂದೋ ರಾಜಾ ವರುಣ ಉಪಯಾತು ತನ್ನೋ ವಿಶ್ವೇ ಅಭಿಸಂಜಂತು ದೇವಾಃ ತನ್ನೋ ನಕ್ಷತ್ರಗುಂ ಶತಭಿಷಗ್ಜುಷಾಣಂ ದೀರ್ಘಮಾಯುಃ ಪ್ರತಿರದ್ಭೇಷಜಾನಿ ಅಜ ಏಕ ಪಾದುತಗಾತ್ ಪುರಸ್ತಾತ್ ವಿಶ್ವಭೂತಾನಿ ಪ್ರತಿಮೋದಮಾನಃ ತಸ್ಯ ದೇವಾಃ ಪ್ರಸವಂಜಂತಿ ಸರ್ವೇ ಪೋಷ್ಠಪದಾಸೋ ಅಮೃತಶ್ಚ ಗೋಪಾಃ ವಿಭ್ರಾಜಮಾನಃ ಸಮಿಧಾನ ಉಗ್ರಃ ಆಂತರಿಕ್ಷಮರುಹದ ಗಂಜಾಂ ತದುಂ ಸೋರ್ಯಂ ದೇವ ಮಜಮೇಕ ಪಾದಂ ಪ್ರೋಷ್ಠಪದಾಸೋ ಅನುಜಂತಿ ಸರ್ವೇ ಅಹಿರ್ಬುದ್ಧಿಯಃ ಪ್ರಸಮಾನಯೇತಿ ಶ್ರೇಷ್ಠೋ ದೇವಾನಾಮುತ ಮಾನುಷಾಣಾಂ ತಮ್ರಾಂಹಣಾಃ ಸೋಮಪಾಃ ಸೋಮ್ಯಾಸಃ ಪ್ರೋಷ್ಠಪದಾಸೋ ಅಭಿರಕ್ಷಂತಿ ಸರ್ವೇ ಚತ್ವಾರ ಏಕಮಭಿಕರ್ಮ ದೇವಾಃ ಪ್ರೋಷ್ಠಪದಾಸ ಇತಿ ಯಾನು ವದಂತಿ ತೇ ಬುದ್ಧಿಯಂ ಪರಿಷದ್ಯಗ್ಗಸ್ತುವಂತಃ ಅಹಿಗಂ ರಕ್ಷಂತಿ ನಮಸೋಪಸದ್ಯ ಪೂಷಾರೇವತ್ಯಂಡೇತಿ ಪಂಥಾ ಪುಷ್ಟಿಪತಿ ಪಶುಪಾವಾಜಭಸ್ತ್ಯೌ ಇಮಾನಿ ಹವ್ಯಾ ಪ್ರಯತಾಜುಷಾಡಾ ಸುಗೈರ್ನೋಜಾತೈರುಪಯಾತಾಯ್ ಯಜ್ಞಂ ಕ್ಷುದ್ರಾನ್ ಪಶೂನ್ ರಕ್ಷತು ರೇವತೀನಃ ಗಾವೋದೋ ಅಶ್ವಾಗುಂ ಅನ್ನೇತ ಪೂಷಾ ಅಂದಗುಂ ರಕ್ಷಂತೌ ಬಹುಧಾ ವಿರೂಪಂ ವಾಜಗುಂ ಸನುತಾಂಜಯಮಾನಾಯ ಯಜ್ಞಂ ತದಶ್ವಿನಾವಶ್ವಯುಜೋಪಯಾತಾಂ ಶುಭಂಗಮಿಷ್ಠೌ ಸುಯಮೇಭಿರಶ್ವೈಃ ಸ್ವನ್ನಕ್ಷತ್ರಗುಂ ಹವಿಷಾ ಯಜಂತೌ ಮಧ್ವಾ ಸಂಪೃಕ್ತೌ ಯಜುಷಾ ಸಮಕ್ತೌ ಯೌ ದೇವಾನಾಂ ಭಿಷಜೌ ಹವ್ಯವಾಹೌ ವಿಶ್ವಸ್ಯ ದೂತಾವಮೃತಸ್ಯ ಗೋಪೌ ತೌ ನಕ್ಷತ್ರಂ ಯಜುಷಾ ನೋಪಯಾತಾಂ ನಮೋಶ್ವಿಭ್ಯಾಂ ಕೃಣಮೋಶ್ವಯುಭ್ಯಾಂ ಅಪಪಾಪ್ಮಾನಂ ಭರಣೀರ್ಭರಂತು ತದ್ಯಮೋ ರಾಜಾ ಭಗವಾನ್ ವಿಚಷ್ಟಾಂ ಲೋಕಸ್ಯ ರಾಜಾ ಮಹತೋ ಮಹಾನ್ ಹಿ ಸುಗನ್ನಃ ಪಂಥಾಮಭಯಂ ಕೃಣೋತು ಯಸ್ಮಿನ್ ನಕ್ಷತ್ರೇ ಯಮ ಏತಿ ರಾಜಾ ಯಸ್ಮಿನ್ನೇನಮಭ್ಯಷಿಂಚಂತ ದೇವಾಃ ತದಶ್ಚ ತಿತ್ತಗಂ ಹವಿಷಾ ಯಜಾಮ ಅಪಪಾಪ್ಮಾನಂ ಭರಣೀರ್ಭರಂತು ನಿವೇಶನೆ ಸಂಗಮನೆ ವಸೂನಾಂ ವಿಶ್ವಾರೂಪಾಣಿ ವಸೂನ್ಯಾವೇಶಯಂತಿ ಸಹಸ್ರಪೋಷಕಂ ಸುಭಗಾರರಾಣಾಸಾನ ಆಗನ್ವಚ್ಚ ಸಾಂವಿಧಾನ ಜತ್ತೇ ದೇವಾ ಅದಧುರ್ಭಾಗಧೇಯಮಾವಾಸ್ಯೇ ಸಂವಸಂತೋ ಮಹಿತ್ತಾ ಸಾನೋ ಯಜ್ಞಂ ಪಿಪ್ರಿಹಿ ವಿಷ್ಟವಾನೇ ರಜಿನ್ನೋ ಧೇಹಿ ಸುಭಗೇ ಸುವೀರಂ ನವೋ ನವೋ ಭವತಿ ಜಾಯಮಾನೋನ್ಹಾಂಕೇತುರುಷಸಾ ಮೇತ್ಯಗ್ರೇ ಭಾಗಂ ದೇವೇಭ್ಯೋ ವಿದಧಾತ್ಯಾಯನ್ ಪ್ರಚಂದಮಾಸ್ತಿರತಿ ದೀರ್ಘಮಾಯುಃ ಯಮಾದಿತ್ಯಾ ಅಗುಂಶಮಾಪ್ಯಾಯಜಂತಿ ಯಮಕ್ಷಿತಮಕ್ಷಿತಯಃ ಪಿಬಂತಿ ತೇನ ನೋ ರಾಜಾ ವರುಣೋ ಬೃಹಸ್ಪತಿರಾಪ್ಯಾಯಜಂತು ಭುವನಶ್ಚ ಗೋಪಾಃ ಯೇ ವಿದೂಪೇ ಸಮನಸಾ ಸಂಜಯಂತಿ ಸಮಾನಂದಂತಂ ಪರಿತಾತನಾತೇ ವಿಭೋ ಪ್ರಭೋ ಅನುಭೋ ವಿಶ್ವತೋ ಹುವೇ ತೇನೋ ನಕ್ಷತ್ರೇ ಹವಮಾಗಮೇತಂ ವಯಂ ದೇವೀ ಬ್ರಹ್ಮಣಾ ಸಂವಿಧಾನಾಃ ಸುರತ್ನಾಸೋ ದೇವವೀತಿಂ ದಧಾನಾಃ ಅಹೋರಾತ್ರೇ ಹವಿಷಾ ವರ್ಧಯಂತಃ ಅತಿಪಾಪ್ಮಾನಮತಿಮುಕ್ತ್ಯಾಗಮೇಮ ಪ್ರತ್ಯುವದೃಶ್ಯಾಜತಿ ಯುಚ್ಛಂತಿ ದುಹಿತಾ ದಿವಃ ಅಪೋಮಹೀ ವೃಣುತೆ ಚಕ್ಷುಷಾ ತಮೋ ಜ್ಯೋತಿಷ್ಕೃಣೋತಿ ಸೋನರೀ ಉದುಶ್ರಿಯಾ ಸಜತೆ ಸೂರ್ಯಃ ಸ ಚ ಉದ್ಯನ್ನಕ್ಷತ್ರಮಚ್ಚಿಮತ್ ತವೇ ದುಷೋಗ್ಯುಷಿ ಸೂರ್ಯಸ್ಯ ಚ ತಂ ಭಕ್ತೇನ ಗಮೇಮಹಿ ತನ್ನೋ ನಕ್ಷತ್ರಮಚ್ಚಿಮತ್ ಭಾನುಮತ್ತೇಜ ಉಚ್ಚರತ್ उपयज्ञमिहागमत् प्रणक्षत्राय देवाय इन्द्रायेन्द्रगम् हवामहे तनःसविता सुवत्सनिम् पुष्टिदाम् वीरवत्तमम् उदुत्यञ्जातवेदसम् देवम् वहन्ति केतवः दृशे विश्वाय सूर्यम् चित्रम् देवानामुदगादनीकम् चक्षम् मित्रस्य वरुणस्याग्रेः आप्राद्या वा पृथिवी अन्तरिक्षगुम् सूर्य आत्मा जगतस्तस्थुषश्च अदितिर्नगुरुष्यत्वदितिः शर्म यच्छतु अदितिः पात्वगुंहसः महीमोषु मातरगुम् संव्रतानावृतस्य पत्नीमवसे हुवेम दुविक्षत्रा वजरन्तीमुरोचीगुम् सुशर्माणमदितिगुम् सुप्रणीतिम् इदम् विष्णुरुविचक्रमे त्रेधा निदधे पदम् समूढमस्य पागुम् सुरे प्रदद्विष्णुस्तव ते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागुम् रेतागुम् सिजिन्वति भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सजसे शिवाभिः दिवि मूर्धानन्दधिषे सुवर्षाञ्जिह्वामग्ने च कृषे हव्यवाहम् अनुनोद्यानुमतिर्यज्ञम् देवेषु मन्यताम् अग्निश्च हव्यवाहनो भवताम् दाशुषेमयः अन्विदनुमते तम् मन्यासैषञ्च नः कृधि क्रत्वे दक्षाय नो हि नु प्रण आयोगुंषितारिषः हव्यवाहमभिमातिशाहम् रक्षोहणम् प्रतनासु जिष्णुम् ज्योतिष्मन्तम् देद्यतम् पुरन्धिम् अग्निग्रस्विष्टकृतमाहुवेम सृष्टमग्ने अभितप्रणाहि विश्वादेवपृतना अभिष्या पुरुन्धः पन्थानम् प्रदिशन् विभाहि ज्योतिष्मध्ये शजरन्ध आयुः अग्नये स्वाहा कृत्तिकाभ्य स्वाहा अम्बायै स्वाहा दुलायै स्वाहा इदत्नी स्वाहा भ्रजन्त्यै स्वाहा मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा चुपणीकायै स्वाहा प्रजापतये स्वाहा रोहिण्यै स्वाहा लोचमानायै स्वाहा प्रजाभ्यस्वाहा सोमायस्वाहा मृगशीर्षायस्वाहा इन्दकाभ्यस्वाहौषधीभ्यस्वाहा राज्यायस्वाहाभिजित्यै स्वाहा रुद्रायस्वाहार्द्रायै स्वाहा भिन्नमानायै स्वाहा पशुभ्यस्वाहा अदित्यै स्वाहा पुनर्वसुभ्याम् स्वाहा भूत्यै स्वाहा प्रजात्यै स्वाहा बृहस्पतये स्वाहा तिष्ठाय स्वाहा ब्रह्मवर्चसाय स्वाहा सर्पेभ्यस्वाहा शेषाभ्यस्वाहा दन्दशूकेभ्यस्वाहा पितृभ्यस्वाहा मघाभ्यः स्वाहा नघाभ्यस्वाहा गदाभ्यः स्वाहारुन्धतेभ्यस्वाहा अर्यम्ने स्वाहा फल्गुनेभ्यागस्वाहा पशुभ्यस्वाहा भगायस्ताः फल्गुनेभ्यागस्ताः श्रेष्ठायस्ताः सवित्रे स्वाहा हस्ताय स्वाहा ददते स्वाहा प्रणते स्वाहा प्रयच्छते स्वाहा प्रतिगृह्णते स्वाहा त्वष्ट्रे स्वाहा चित्राये स्वाहा चैत्रायस्ताः प्रजायै स्वाहा వాయవే స్వాహ నిష్ట్యాయై స్వాహ కామచారాయ స్వాహాభిజిత్యై స్వాహ ఇంద్రాగ్నిభ్యాగుస్వాహ విశాఖాభ్యాగుస్వాహ శ్రేష్ఠాయ స్వాహాభిజిత్యై స్వాహ పౌర్ణమాస్యై స్వాహ కామాయ స్వాహ గత్యై స్వాహ మిత్రాయ స్వాహ నోరాధేభ్య స్వాహ మిత్రతేజాయ స్వాహాభిజిత్యై స్వాహ ఇంద్రాయ స్వాహ జ్యేష్ఠాయై స్వాహ జ్యేష్ఠాయ స్వాహాభిజిత్యై స్వాహ ప్రజాపతయే స్వాహ మూరాయ స్వాహ ప్రజాయై స్వాహ అభ్యస్వాహ షాఢాభ్యస్వాహ సముద్రాయ స్వాహ కామాయ స్వాహ అభిజిత్యై స్వాహ విశ్వేభ్యో దేవేభ్యస్వాహ షాఢాభ్యస్వాహ అనపజయ్యాయ స్వాహ జిత్యై స్వాహ బ్రహ్మణే స్వాహ భిజితే స్వాహ బ్రహ్మలోకాయ స్వాహ భిజిత్యై స్వాహ విష్ణవే స్వాహ శ్రోణాయై స్వాహ శ్లోకాయ స్వాహ శ్రుతాయ స్వాహ వసుభ్యస్వాహ శ్రవిష్ఠాభ్యస్వాహ అగ్రాయ స్వాహ పరీత్యై స్వాహ వరుణాయ స్వాహ శతభిషజే స్వాహ భేషజేభ్యస్వాహ అజానైకపదే స్వాహ ప్రోష్ఠపదేభ్యస్వాహ తేజసే స్వాహ బ్రహ్మవర్చసాయ స్వాహ అహయే బుద్ధియాయ స్వాహ ప్రోష్ఠపదేభ్య స్వాహ ప్రతిష్టాయై స్వాహ పూష్ణే స్వాహ రేవత్యై స్వాహ పశుభ్య స్వాహ అశ్వేభ్యాగ స్వాహ అశ్వయభ్యాగ స్వాహ శ్రోత్రాయ స్వాహ శ్రుత్యై స్వాహ యమాయ స్వాహ పభరణీభ్య స్వాహ రాజ్యాయ స్వాహ అభిజిత్యై స్వాహ అమావాస్యాయై స్వాహ కామాయ స్వాహ గత్యై స్వాహ చంద్రమసే స్వాహ ప్రతిదృశ్యాయై స్వాహ అహోరాత్రేభ్య స్వాహ అర్ధమాసేభ్య స్వాహ మాసేభ్య స్వాహ హర్తభ్య స్వాహ సంవత్సరాయ స్వాహ అన్నే స్వాహ రాత్రియై స్వాహ అతిముక్త్యై స్వాహ ఉషసే స్వాహ వ్యుష్ట్యై స్వాహ యోషుష్యై స్వాహ అభ్యుచ్ఛందై స్వాహ వ్యుష్టాదై స్వాహ నక్షత్రాయ స్వాహోదేష్యతే స్వాహ ఉద్యతే స్వాహోదితాయ స్వాహ హరసే స్వాహ భరసే స్వాహ భ్రాజసే స్వాహ తేజసే స్వాహ తపసే స్వాహ బ్రహ్మవర్చసాయ స్వాహ సూర్యాయ స్వాహ నక్షత్రేభ్య స్వాహ ప్రతిష్టాయై స్వాహ ఆదిత్యై స్వాహ ప్రతిష్టాయై స్వాహ విష్ణవే స్వాహ యజ్ఞాయ స్వాహ ప్రతిష్టాయై స్వాహ అధిక్రామిణో అకారిషం జిష్ణో రష్ట్రస్య వాజినః సురభినో ముఖాకరత్ ప్రణాయోగం శితారిషత్ ఆపోహిష్ఠామయో భువస్థాన ఊర్జే దధాతన మహేరణాయ చక్షసే యో వః శివతమోరసస్తస్య భాజయతే హనః ఉషతీరివ మాతరః तस्मा अरङ्गमामभोजस्य क्षया यजिन्नथ आपो जनयथा जनः उदुत्तमम् वरुणपाशमस्मदबाधमम् विमध्यमग्रश्रथाय असा वयमादित्यम् व्रते तवानागसो अदितये स्याम अस्तभ्नात्या वृषभो अन्तरिक्षममिमीतपरिमाणम् पृथिव्या आसीतद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि यत्किञ्चेतम् वरुणदैव्येतनेभिद्रोहम् मनुष्याश्च रामसि अचित्ते यत्तव धर्मायुजोऽपि ममानस्तस्मादेन सो देवरीरिषः कितवासो यद्रिपुर्नदीपि यद्वाघ सत्यमुतयन्न विद्मा सर्वाता विश्वशिथिरेव देवाथाते श्यामवरुणप्रिया सह अवतेहेडो वरुणनमोभिरवयज्ञेभिरीमहे हविर्भिः क्षयन्नस्तभ्यमसुरप्रचेतो राजन्नेनागुंसिशिश्रथः कृतानि तत्त्वाया विब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोद्धुरुरगुं समान आयुः प्रमोषीः हिरण्यवर्णाश्रुतयः पापकाया सुजातः कश्यपोजास्मिन्द्रः अग्निञ्जा गर्भम् दधिरे विरूपास्तान आपश्चग्रस्यो न भवन्तु या सागुम् राजा वरुणो जातिमध्ये सत्या नृते अवपश्यञ्जनानाम् मधुश्चुतश्रुतयोजाः पापकास्तान आपश्चग्रस्यो न भवन्तु या साम् देवादिविकृण्वन्ति भक्षञ्जा अन्तरिक्षे बहुधा भवन्ति याः पृथिवीम् वयसोन्दन्ति शुक्रास्तान आपश्चग्रस्यो न भवन्तु शिवेन पाचक्षुषापश्च तापश्शिवजा तनुवोपस्पृशतत्वचम् मे सर्वागुम् अग्नीगुम् रप्सुषदो हुवे वो मयि वर्चो बलमो जो निधत्ता यददः सम्प्रजतीरहावनदता हते तस्मादानद्यो नामस्थता वो नामानि सिन्धवः यत्प्रेषिता वरुणेन ताश्रीभगुम् समवल्गता तदा क्रोदिन्द्रो वो यतीस्तस्मादापो अनुस्थन अपकामग्रस्यन्दमाना अवीवरदमोहिकम् इन्द्रो वश्शक्तिभिर्देवीस्तस्माद्वान्नामबोहितम् एको देवो अप्यतिष्ठत्स्यन्दमाना यथा वशम् उदानिषुर्महीरिति तस्मादुदगमुच्यते आपो भद्राघृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः तीव्रो रसो मधुप्रचामरङ्गम आमा प्राणेन सह वर्चसागन् आदित्पश्याम्युतवाशुणोम् व्याबाघोषो गच्छति वाङ्ग्र आसाम् मन्ये भेदानो अमृतस्य तर्हि हिरण्यवण्डा अतर्पञ्जदावः आपोहिष्ठामयो भुवस्तान ऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमोरसस्तस्य भाजयते हनः उशतीरिव मातरः तस्मा अरङ्गमामभोजस्य क्षया यजिन्नथ आपो जनयथा जनः दिविश्रयस्वान्तरिक्षे यतस्व पृथिव्या सम्भव ब्रह्मवर्चसमसि ब्रह्मवर्चसायत्ता पवमानस्सु वज्जनः पवित्रेण विचर्षणिः यः पोता सुपुनातु मा पुनन्तु मा देव जनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदीज्यत् अग्ने क्रत्वा क्रतुगुम्रनो यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ब्रह्मतेन पुनीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैश्वदेवी पुनती देव्यागात् यस्यै बह्वीस्तनुवो वीतपृष्ठाः तया मदन्तः स धमाद्येषु वयज्ञस्यामपतयोरजीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरोमयो भूः यावा पृथिवीपयसापयोभिः ऋतावरी यज्ञिजे मा पुनीताम् बृहद्भिः सवितस्तृभिः वरिषिष्ठैर्देवमन्मभिः अग्नेरक्षैः पुनाहिमा येन देवा अपुनत येनापो दिव्यङ्गशः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पाववानीरध्येति ऋषिभिः संभृतगुं रसम् सर्वगुंसपूतमश्नाति स्वदितम् वातरिश्वन पाववानीर्यो अध्येति ऋषिभिः संभृतगुं रसम् तस्मै सरस्वती दुहे क्षीरगुं सर्पिर्मधुदकम् पाववानी स्वस्त्ययनीः सुदुघा हि पयस्वतीः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुं हितम् पाववानीर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवीर्देवैः समाभृताः पाववानी स्वस्त्ययनीः सुदुघा हि घृतश्च्युतः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुं हितम् येन देवाः पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगम् हिरण्मयम् तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे इन्द्रः सुनीति सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्ररुणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु ॐ भूः ॐ भुवः ॐ सुवः ॐ भूर्भुवः सुवः तच्छञ्जोरावृणीमहे गातै यज्ञाय गातै यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तुद्विपदे शञ्चतुष्पदे ॐ शान्तिश्चान्तिश्चान्तिः। ब्रह्मा ब्रह्मण उज्जहारः प्राणैः शिरः कृत्तिवासाः पिनाकी ईशानो देवः स न आजर्दधातु तस्मै जहोमि हविषाघृतेन विभ्राजमानः शरीरस्य मध्याद्रोचमानो धर्मरुचिर्य आजात् समृत्यपाशानपनुद्यघोरानिहायुषेणो घृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात्पुररूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चन्तमायुषे वर्धयामोधृतेन श्रियम् लक्ष्मीमौ बलामम्बिकाङ्गाम् षष्ठीम् जयामिन्दसेने चुदाहुः ताम् विद्याम् ब्रह्मयोनिकम् स्वरूपामिहायुषे दर्पयामोधृतेन दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ससूनवः सपतयः सयोच्छा आयुषेण घृतमिदम् जुषन्ताम् दिव्यागणा बहुरूपाः पुराणा आयुश्चिरो नः प्रमथन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मानः प्रजागुं रीरिशो मात वीरान् ekah purastadya idam babhuva yato babhuva bhuvanasya gopah yamapyeti bhuvanagum saam paraje sanoha virghatamihayushe etto devah vasom rudranadityan marutotha sadhyan rubhon yakshan gandharuvagascha pitragascha vishwane rugun sarpagascha angirasotha saruvan ghritagum hatta svajishyamihayama shashvate vishnotvanda antavashyamma yachasahantya prate dhara madhustyuta utchandakrate akshitam namo brahmane namo astagdaje namah prithivyai namo oshadhibhyah namo vache namo vachaspataje namo vishtave brihate karomi om shanti shanti shantihi devasyatta savitah prasave ashvino arbahubhyam Poshtahastabhyam Ashvinarbhaishajyena Tejase Brahmavarchasa Yabhishinjami Devasyatva Savitav Prasave Ashvinarbahubhyam Poshtahastabhyam Sarasvatyaibhaishajyena Viryajannadhyayabhishinjami Devasyatta Savitav Prasave Ashvinarbahubhyam Poshtahastabhyam Indrasyendriyena Shriyashasevalayabhishinjami Aryabhanam Rihaspatimindrandanaya Chodaya Vacham Vishnugum Sarasvatigum Savitarancha Vajinam Somagum Rajanam Varuna Bhakti Bandara Bhavahe Adityana Vishnugum Soryam Brahmanancha Brihaspatim Devasyatta Savitav Prasave Eshvinarbahubhyam Poshtahastabhyagum Sarasvati Vacha Yantara Yantrena Agnespasam Rajyena Bhishinjami Indrasyatva Rajyena Bhishinjami Brihaspate Espasam Rajyena Bhishinjami Asme deva so vapushe chikitsataya vashira dampati vama mashnutaha Pumaan putra jajate vindate vasvatha vishve arapa ejhate grihaha Ashirda jadampati vama mashnuta varishto rajasaja pagum samokasa Yāsi chatsandugdhyaṁ kumhyā saheshte naya mannamatiṁ jahātu saha Sarpir grīvī pīvaryasya jāyā pīvānah putrā akrśāso asya Sahaja niryasya makhasya vāna indra yāshirakum saha kumhyā dātu Ashirma urja mutasa prajastamishandatha tutta vidagum savachasam Sanjayan kshetrani sahasaha vindrakrambano anyagam adharan sapatnane Ashishame vaitamasha aste purna patre antato nushtubha Chatushpadva etachandah pratishthitam patni jaipurna patre bhavati Asmin loke pratitishthaniti Asmin neva loke pratitishthati Achovagva anushtuk vangmithuram Aporetah prajananam Etasmātte mithunāt jidyotamānastanayan varshati Pretasinjanne prajāfrajanayanne Yadve yajyasya brahmana yujyate Brahmana vaitasya vivokaha అద్భిశాంతిః విముక్తం వా ఏతర్హి యోక్త్రం బ్రహ్మణా ఆదాయైన పత్నీ సహాప ఉపగృహ్ణీతేషాంచై అంజనోపోర్ణ పాత్రమానయతి రేత ఏవాస్యాం ప్రజాం దధాతి ప్రజయా హి మనుష్యః పూర్ణః ముఖం విమృష్టే అవభృథస్యైవ రూపం కృత్వోత్తిష్ఠతి గోమృగకంఠేన ప్రథమమాహుతిం జుహోతి పశవో వైదో మృగః రుద్రో అగ్నిస్పిష్టకృత్ రుద్రాదేవ పశూనంతర్దధాతి అథో యత్రైషాహుతిరహూయతే న తత్ర రుద్రః పశూనభిమన్యతే అశ్వసఫేన ద్వితీయా బాహుతిం జుహోతి పశవో వా ఏకశఫం రుద్రో అగ్నిస్పిష్టకృత్ రుద్రాదేవ పశూనంతర్దధాతి అథో యత్రైషాహుతిరహూయతే న తత్ర రుద్రః పశూనభిమన్యతే అజస్మజనకమండలు నా తృతీయా ఆహుతిం జుహోత్యాయాస్యో వై ప్రజాః రుద్రో అగ్నిస్పిష్టకృత్ రుద్రాదేవ ప్రజా అంతర్దధాతి అథో యత్రైషాహుతిరహూయతే న తత్ర రుద్రః ప్రజా అభిమన్యతే అపశ్యంతా మనసా చేకితానంతపసో జాతంతపసో విభూతం ఇహ ప్రజామిహ రయగం రరాణః ప్రజాయస్వ ప్రజయా పుత్రకామ అపశ్యంతా మనసాదీధ్యాగస్వాయాంతనోగం మృత్యేనాథమానాం ఉపమాముచ్చాయువతిర్బభూయాః ప్రజాయస్వ ప్రజయా పుత్రకామే సర్వస్యాప్తే సర్వస్య జిత్తే సర్వమేవతేన ఆప్నోతి సర్వం జయతి రుద్ధ్యాస్మ హవ్యైర్నమసోపసజ్జ మిత్రం దేవం మిత్రధేయన్నో అస్తు అనురాధాన హవిషా బద్ధయంతః శతంజీవేమ శరదస్స వీరాః నవో నవో భవతి జాజమానోన్హా అంకేతురుషసా మేత్యగ్రే భాగం దేవేభ్యో విదధాత్యాయం ప్రచంద్రమాస్తి యతి దీర్ఘమాయుః శతమానం భవతి శతాయుః పురుషః శతేంద్రియ ఆయుష్ేవేంద్రియే ప్రతిష్ఠతి సంతాసిం చ వియజుషా ప్రజామాయుర్ధనం చ ఆయుష్మంతం వర్చస్వంతం అథో అధిపతిం విశాం అస్యాః పృథివ్యా అధ్యక్షం ఇమమింద్రవృషభం కృణో పూష్ణః పోషేణ మహ్యం దీర్ఘాయుత్వాయ శతశారదాయ శతకం శరద్భ్య ఆయుషే వర్చసే జీవాత్మై పుణ్యాయ ఏతేన వై దేవాజయిత్వాని జిత్వా యంకామపకామయం తతమాప్నువన్ యంకామం కామయతే తమేతేనాప్నోతి పృథ్వీ సువర్చాయువతిః సజోషాః పౌర్ణమాస్యుదగాచ్ఛోభమానా ఆప్యాయయంతి దురితాని విశ్వా పురుందుహాయజమానాయ యజ్ఞం క్షత్రస్య రాజా వరుణోధిరాజః నక్షత్రాణాగం శతభిషగ్వసిష్ఠః తౌ దేవేభ్యః కృణుతో దీర్ఘమాయుః పర్యాప్త్యా అనందరాజాయ సర్వస్తోమోతిరాత్ర ఉత్తమమహర్భవతి సర్వస్యాప్తే సర్వస్య జిత్తే సర్వమేవ తేన ఆప్నోతి సర్వం జయతి సుమంగళీరియం వధూరిమాగం సమేత పశ్యత సౌభాగ్యమస్యై దత్తాయాథాస్తం విపరేతన इमां त्वमिन्द्रमेढ्यः सुपुत्रागुं सुभगां कृणु दशा अस्यां पुत्रानाथेहि पतिमेकादशं कृधि आभिर्गेर्भिर्यदतो न ऊनमाप्याय हरिभो वर्धमानः यदा स्तोत्रभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अथ ते स्याम ब्रह्म प्रावादिष्मतन्दो माहासीत् ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ।